नमस्कारः. सन्धिविषयकचर्चा जायमाना अस्ति अस्मिन् अस्यां चर्चायां. गीताप्रवेशस्य प्रथमपाठं वयं पश्यन्तः स्मः. गतवर्गे सन्धिविषये किञ्चित् परिचयं प्राप्तवन्तः. तत्र अस्माभिः दृष्टं आसीत् यद् वर्णानाम् अतिशयेन सन्निधिः अथवा अत्यन्तं नैकट्यं यदा भवति तदा एकस्य वर्णस्य वा उभयोः वर्णयोः यदा कश्चन विकारः जायते अथवा किमपि परिवर्तनं जायते तदा सन्धिः इति उच्यते इति. सन्धिकार्यं चतुर्विधं भवति इति अपि अस्माभिः दृष्टमासीत्. आदेशः, आगमः, लोपः, प्रकृतिभावः इति सन्धिविषये परिचयः आसीत्. तदनन्तरं महेश्वरसूत्राणामपि किञ्चित् अभ्यासं कृतवन्तः. अद्य पुस्तके स्थितान् अभ्यासान् पश्यामः. तर्हि प्रथमे पुटे एका लघुकथा अस्ति. बालसुब्रह्मण्यमहोदय पश्यति वा? हा, कृपया ततः आरभ्य एतं पाठं सावधानमुच्चैः पठत इत्यस्मात्.
एतं पाठं सावधानम् उच्चैः पठत. नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत्. श्रीमत् भगवद्गीता महाभारते अन्तर्गतः कश्चन भागः. भीष्मपर्वाणि एष भागो अस्ति. एषः भागः अस्ति. भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षि च नमस्कृत्य ततः जयः इति ग्रन्थस्य वाचनं करणीयम् इति एतस्य श्लोकस्य अर्थः.
अस्तु महोदय, तावत्पर्यन्तं किञ्चित्.
भगवद्गीता महाभारते अन्तर्गत कश्चन भागः इत्युक्ते महाभारतग्रन्थे भगवद्गीता अस्ति. भीष्मपर्वाणि इत्युक्त भागे महाभारते भीष्मपर्व इति युक्तभागे भगवद्गीता अस्ति. अत्र भगवन्तं नारायणं श्रेष्ठमनुष्येषु धीरः श्रेष्ठः अर्जुनः देवी सरस्वती व्यासमहर्षि एतानि सर्वे नमस्कृत्य तदनन्तरं जयः इति ग्रन्थस्य वाचनं करणीयम्.
अस्तु. महाभारतस्य नाम जयः इति आसीत् इति अग्रे पठेम. तर्हि एतान् सर्वान् नमस्कृत्य ग्रन्थस्य वाचनं करणीयम् उदीरयेत् इत्यस्य अर्थः सः एव. उदीरयेत् इत्युक्ते वदेत् अथवा वाचनं कुर्यात् इति अर्थः. तर्हि महोदय, उपरितनश्लोके सन्धियुक्तपदानि कानि सन्ति इति एकवारं परिशीलयतु.
नमस्कृत्य च एव चैव
तत्र हा नमः कृत्य
नमस्कृत्य विसर्गसन्धि नरं च एव स्वरसन्धि नरोत्तमं नर उत्तमं पुनः स्वरसन्धि देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत्. जयम् उदीरयेत् इति केवलं वर्णमेलनमेव, सन्धि अत्र नास्ति.
समीचीनं. जयम् उदीरयेत् सन्धिः नास्ति, किन्तु इतोपि एकं पदम् अस्ति यस्मिन् सन्धिः अस्ति.
देवी सरस्वतीं व्यासं ततः जयमुत्तनारायणं
ततः ततः पदस्य किं जातम् अत्र?
ततः विसर्गस्य स्थाने ओकारः
हा विकारस्य परिवर्तनं भूत्वा ओकारः आगतः इति विसर्गसन्धिः. तर्हि आहत्य चैव ततः ततो नरोत्तमं नमस्कृत्य इति. अस्तु, भवता यत् पठितं तस्मिन् भागे स्थूलाक्षरैः मुद्रितानि पदानि कानि इति कृपया परिशीलयतु.
एष भागो अस्ति इत्येतस्य पुनः
एषो तत्र किं जातम्? एष भागो अस्ति इत्यत्र
एष भागो अस्ति भागो अस्ति अत्र अकारः लोपः भागो भागोस्ति इति.
हा समीचीनं. तस्मात् पूर्वम् एषः इत्यस्मिन् किं जातम्?
एषः इति विसर्गस्य लोपः भवति, एष एव तिष्ठति.
एष एव तिष्ठति. भागः इत्यस्मिन् विसर्गस्य परिवर्तनं भूत्वा भागो इति अभवत्, तदा अस्ति इत्यस्मिन् अकारस्य लोपः अपि जातः. पश्येम कीदृशसन्धिः इति अग्रे पश्येम. अस्तु, अग्रे इतोपि एकं पदमस्ति
इत्येतस्य. इति एतस्य इति स्वरसन्धि, इकारः एकारः, इकारस्थाने य
बहु समीचीनं महोदय. इकारस्य स्थाने यकारः आगच्छति इत्येतस्य इति अस्ति. अस्तु, अग्रे राजी भगिनी कृपया.
एष भारते प्राचीनकालादागतः सम्प्रदायः. महाभारतस्यैव पूर्वं जयः इति नाम आसीत्. गच्छता कालेन बहूनां कथोपकथादीनां योजनेन स एव महद्रूपं प्राप्य महाभारतमिति विख्यातम् अभवत्. एषः भारते विसर्गसन्ति लोपः भवति अत्र. प्राचीनकालात् आगतः, तत्र वर्णमेलनम् एव.
भगिनी एकनिमिषः परिशीलयतु. प्राचीनकालात् आगतः
तकारः दकार इति जस्तु सन्ति इति अहं चिन्तयामि.
हा, अत्र कस्य परिवर्तनं जातं?
तकारस्य परिवर्तनं दकारः अभवत्.
हा, तकारं कीदृशम् अक्षरमस्ति?
तकारं कर्कशव्यञ्जनं, दकारं मृदुव्यञ्जनं.
हा, तर्हि व्यञ्जनस्य परिवर्तनं जातं. तर्हि कीदृशसन्धिः इति वदामः?
हल् सन्धिः.
हा समीचीनं,
हल् सन्धिः.
सत्यं व्यञ्जनसन्धिः अथवा हल् सन्धिः. तस्मिन् कीदृशसन्धिः इति अग्रे पठेमः. अस्तु, अग्रे.
महाभारतस्य एव तस्य एव गुणसन्धिः इति अहं चिन्तयामि. गुणसन्धिः वा वृद्धिसन्धिः वा इति
तद् अग्रे पश्येम. अत्र केवलं यथा बालसुब्रह्मण्यमहोदयेन परिशीलितं तथा करोतु. अस्तु, अकारः अपि च एकारः कस्य परिवर्तनं जातम् इति पश्यतु तावदेव. तर्हि अस्माकम् अभ्यासः अस्मिन् पाठे अस्ति विसर्गसन्धिः वा व्यञ्जनसन्धिः वा अथवा स्वरसन्धिः वा इत्यस्य अभिज्ञानम्.
भारतस्य एव अकारः यकारः योजयित्वा ऐकारः अभवत्.
हा, तर्हि स्वरसन्धिः एव.
स्वरसन्धिः पूर्वं जय महाभारतस्य पूर्वस्य नाम जयः इति आसीत्. गच्छता कालेन महाभारतम् इति विख्यातम् अभवत्. सः एव सः विसर्गः लोपः भवति. महत् रूपम् अत्र अपि व्यञ्जनसन्धिः एव. महत् रूपं तकारः दकारः परिवर्तनम् अभवत्. सन्धि अभवत् वा अथवा सन्धि एव अभवत्. दकार परिवर्तनं महाभारतम् इति तत्र योजनमेव. वर्णमेलनम् एव
हा महाभारतमिति वर्णमेलनं एव इति अस्ति
विख्यातम् अभवत्
अस्तु समीचीनमस्ति राघवमहोदय अग्रे पठति वा न पठितुम् इच्छति चेत् पठतु हाय् पठितुम् इच्छति चेत् पठतु वयं साहाय्यं कुर्मः विवरणार्थं पठति
वा प्रयत्नं कुर्मः महाभारते अष्टादश इत्यस्याः इति अस्याः सङ्ख्यायाः अतीव प्राशस्त्यम् अस्ति कटपयादिसङ्ख्याक्रमेण जयशब्दः अष्टादशसङ्ख्यां निर्दिशति महाभारतग्रन्थे अष्टादशपर्वाणि सन्ति महाभारतयुद्धे अष्टादश अक्षौहिण्यः युद्धम् अकुर्वन् युद्धञ्च प्रवृत्तम् अष्टादशदिनानि यावत् गीतायाम् अध्यायानां सङ्ख्या अपि अष्टादश तत्रत्याः अष्टादश अध्यायः अपि अस्मान् जीवनमार्ग बोधयन्ति गीतायाः अध्ययनम् अस्माकं ज्ञानदायकं भवत्
तर्हि महोदय अर्थम् अवगतवान् खलु परिच्छेदस्य अर्थः कः इति एतावद् यद् भवता पठितम् इत्युक्ते महाभारते हा महाभारते अष्टादश इत्यस्य सङ्ख्यायाः प्राधान्यं प्राशस्त्यम् इत्युक्ते प्राधान्यम् अस्ति इत्युक्ते 18 अथवा अष्टादश इति सङ्ख्या प्रधाना अस्ति महाभारते किमर्थम् इति चेत् अत्र उक्तम् अष्टादशपर्वाणि सन्ति अपि च महाभारतयुद्धे अष्टादश अक्षौहिण्यः आसन् इति अक्षौहिण्यः इति सेनाविशेषः इत्युक्ते एकविधसेना अपि च युद्धम् अष्टादशदिनानि प्रवृत्तानि अष्टादशदिनानि यावत् युद्धं प्रवृत्तम् अपि च गीतायामपि अष्टादशायां सङ्ख्या अपि गीतायाः अध्यायानां सङ्ख्या अपि अष्टादश हा इति सर्वं कृत्वा महाभारते अष्टादश इत्यस्य सङ्ख्यायाः प्राधान्यम् अस्ति अत्र एकम् इति सङ्ख्यां सूचयित्वा एका टिप्पणी अस्ति अधोभागे परिशिष्टं पश्यत इति वयं तु मूलवर्गे पठितवन्तः पुनः एकवारं गृहपाठत्वेन पठन्तु तदा ज्ञायते जय इत्यस्यापि अन्ततो गत्वा कटपयादिसङ्ख्याक्रमेण जयशब्दस्यापि अष्टादशसङ्ख्या एव आगच्छति इति अन्तिमे पुस्तकस्य अन्तिमे भागे प्रथमं परिशिष्टं पश्यतु अस्तु इति आसीत् अत्र सन्धिविषये किञ्चित् परिशीलनं करोति वा महोदय स्थूलाक्षरैः यद् लिखितम् स्थूलाक्षरैः इत्युक्ते बोल्ड् इत्यस्मिन् यद् लिखितम् इत्यस्याः कर्तुं शक्नोति वा अथवा साहाय्यम् अपेक्षितम्
इत्यस्याः
हा इत्यस्याः इति अस्ति तत्र पदविच्छेदं कृत्वा किं किमस्ति आवरणे
इति अस्याः
हा इति योगः अस्याः इति अस्ति तत्र किं जातम् विद्या भगिनी साहाय्यं करोति वा
आं भगिनि इति अस्याः इति अस्ति. इति इति पदस्य अन्ते इकारः अस्ति, अस्याः इति पदस्य आरम्भे अकारः अस्ति. अत्र यदा सन्धि भवति तदा इकार इति अत्र इकारः अस्ति अन्तिमवर्णः, इकारस्य स्थाने यकारः आगच्छति इत्यस्याः. यदा सन्धि भूत्वा मेलनं भवति तदा इत्यस्याः इति भवति.
समीचीनमस्ति. अग्रे गत्वा अग्रिमपदं स्थूलाक्षरैः
युद्धम् अकुर्वन्, युद्धम् अकुर्वन् अत्र तु सन्धि नास्ति, केवलं वर्णमेलनमेव.
हा, राघव महोदय अवगतं वा किं जातम् अत्र इति? प्रथमपदं सन्धिः अस्ति, इति योगः अस्याः, अत्र इकारस्य स्थाने यकारः आगच्छति इति कृत्वा परिवर्तनं सञ्जातम्. किन्तु द्वितीयपदे युद्धम् अकुर्वन् तत्र कस्यचिदपि परिवर्तनं जातं, केवलं वर्णानां मेलनमेव इति कृत्वा तत्र संयुक्ताक्षरम् एव. अग्रे भगिनि.
अष्टादशाध्यायाः अत्र अत्र अपि सन्धि अस्ति. अष्टादश इति अन्ते अकारः अस्ति, अध्यायाः इति पदे आरम्भे अकारः अस्ति, द्वयोः स्थाने आकारः अष्टादशाध्यायाः
इति आगच्छति. आम्, इति कश्चन परिचयः जातः सन्धिविषये. द्वितीयपुटे अपि च द्वितीयपुटे अपि च तृतीयपुटस्य उपरितनभागे यत्किमपि अस्ति तद्वयम् अधुना एव चर्चितवन्तः. अभ्यासरूपेण गृहे पुनः कुर्वन्तु गृहपाठत्वेन च, इतः अग्रे सरेम. अस्तु, तर्हि तत्र विद्या भगिनी तृतीयपुटे श्लोकाः सन्ति खलु, प्रथमश्लोकं पठति वा?
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमुं व्यूढां द्रुपदपुत्रेण तव शिष्येन धीमता.
तत्र किं किं जातं सन्धियुक्तपदानि कानि?
पश्यैतां, पश्य एताम् अत्र पश्यैताम् अत्र वृद्धिसन्धि अकारस्य.
केवलं हा केवलम् एवं भवत् वदतु वर्णयोः स्थाने किम् आगच्छति इति, तावत् पर्याप्तम्.
अस्तु, अत्र अकारस्य अकारः एकारः द्वयोः स्थाने ऐकारः आगच्छति.
हा, इति स्वरसन्धिः.
इति स्वरसन्धिः. अनन्तरं पाण्डुपुत्राणाम् आचार्य, पाण्डुपुत्राणां योगः आचार्य, अत्र केवलं वर्णमेलनमेव, सन्धिः नास्ति.
अस्तु, इति स्थूलाक्षरैः उल्लिखितं पदद्वयमस्ति, पश्ययेतां पश्यैतां पाण्डुपुत्राणाम् आचार्य. तत्र वस्तुतः सन्धिः नास्ति, वर्णानां वर्णमेलनमेव. किन्तु इतोपि गभीरतया परिशीलयामश्चेत् महतीं चमूं व्यूढां द्रुपदपुत्रेण इत्यत्र मकारस्य अनुस्वारः जातः इति वयं जानीमः एव खलु. व्यञ्जनसन्धिविषये यदा पठामः तदा आगच्छति एतत् सर्वम्.
आम् आम्.
अस्तु, तर्हि नूतनतया केन केन आगतं, कृपया नामानि. एकनिमिषः, राधिका भगिनी, अनन्तरं अखिला भगिनी. अस्तु,
भगिनी अहं सावित्री, अर्धघण्टा यावत् स्थास्यामि.
अस्तु भगिनि. अस्तु सावित्री भगिनी, तर्हि भवती अग्रे पठितुमिच्छति वा द्वितीयश्लोकम्?
आम्. अपर्याप्तं तदास्माकं बलं भीष्माभिरक्षितं, पर्याप्तं द्विधमे तेषां बलं भीमाभिरक्षितम्. प्रथमम् अस्ति तत् योगः अस्माकं, तत्रापि व्यञ्जनसन्धिः, सकारस्य परिवर्तनं जातम्. द्वितीयम् अस्ति भीष्माभिरक्षितम्. भीष्मः अभिरक्षितम्. तत्र भीष्मः अस्ति खलु, विसर्गसन्धिः अपि अस्ति खलु,
समस्तपदमस्ति खलु, समस्तपदे विभक्ति लिङ्गं सर्वं गच्छति इति. तर्हि भीष्म योग अभिरक्षितम्.
तत्र स्वरसन्धि एव आकारस्य आकार जातम्. भीष्म अभिरक्षितं मकारस्य स्वरसन्धि मकारस्य अकारः आकारं जातम्.
एकनिमिषं, मकारः कुत्र?
भीष्म
इत्युक्ते मकारोत्तरवर्ति अकार अपि च अभिरक्षितम् इत्यस्मिन् अकार तयोः परिवर्तनं
माकारः आगतः
दीर्घ आकारः.
तृतीयं विदमे तेषां तु योगः इदं योगः एतेषां तत्र प्रथमम् अस्ति व्यञ्जनसन्धिः इति तु योगः इदम्
एकनिमिष एकनिमिष प्रथमं परिशीलयिष्यामः. तु योगः इदम् तत्र कयोः सन्धिः अस्ति, कयोः मध्ये सन्धिः?
उकारस्य इकारस्य.
हा, उकार इकारयोः मध्ये सन्धिः. तर्हि कस्य स्थाने किम् आगतम्?
स्वरसन्धिः एव, उकारस्य इकारस्य स्वरसन्धिः एव यण् सन्धिः इति. द्वितीयमस्ति इदं योगः
उकारस्य स्थाने वकारः आगतम् आगतः
उकारस्य सत्यम् उकारस्य स्थाने वकारः आगतः. इदं योगः एतेषां विदमे तेषां तत्र प्रायः वर्णमेलनमेव.
हा हा हा, समीचीनं भगिनि, इति अस्ति वर्णमेलनमेव. इदम् इत्यस्य मकारः तदनन्तरं स्वरः इति कृत्वा वर्णमेलनम् अस्तु.
अन्तिमं
भगिनी वकार आगच्छति तु इदम् एतेषां तत्रैव वर्णमेलनमेव इति कथं वक्तुं शक्यते?
न, तस्मिन् पदे त्विदम् एतेषाम् इत्यस्मिन् प्रथमभागे स्वरसन्धिः यथा भगिनी उक्तवती, तु योगः इदम् अनयोः उकार इकारयोः तदनन्तरम्
एतेषां वा
अस्तु.
अस्तु अस्तु, अन्तिमम् अस्ति भीष्माभिरक्षितं. क्षम्यतां, भीमाभिरक्षितं. भीम योगः अभिरक्षितं. भीमाभिरक्षितं तत्रापि वर्णमेलनमेव अथवा वर्णमेलनमेव
भीष्माभिरक्षितम् इत्यस्मिन् यथा आसीत्
भीम अभिरक्षितं भीमाभिरक्षितम् अस्तु. स्वरसन्धिः मकारस्य माकारः जातः,
मकारोत्तरवर्ति अकारः अपि च अभिरक्षितम् इत्यस्य आदिमः वर्णः अपि अकारः. अनयोः स्थाने आकारः दीर्घ अकारः आगतः इति स्वरसन्धिः.
स्वरसन्धिः
अस्तु. तर्हि यदा स्वरयोः मध्ये किञ्चन किमपि परिवर्तनं जायते चेत् स्वरसन्धिः, द्वयोः वर्णयोः एकमपि व्यञ्जनम् अस्ति इति इत्यस्मात् एकस्य वा द्वयोः यदा विकारः अथवा परिवर्तनं जायते तदा व्यञ्जनसन्धिः, विसर्गस्य परिवर्तनं जायते चेत् विसर्गसन्धिः इति त्रिविधमस्ति. अस्तु, सुमित्रा भगिनी अग्रे.
अयनेषु च सर्वेषु यथा भावमवस्थिताः भीष्म भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि यथा भागम् अवस्थिताः यथा भागं योगः अवस्थिताः केवलं वर्णमेलनम् एव भीष्ममेव अभिरक्षन्तु भीष्मं योगः एव प्रथमभागे वर्णमेलनम् एव योगः अभिरक्षन्तु इति स्वरसन्धिः
हा स्वरसन्धिः किमर्थम्
एव इति अकारः अन्तिमवर्णः अभिरक्षन्तु इति अकारः
हा समीचीनं भगिनि तर्हि उभयोः अकारयोः स्थाने दीर्घ अकारः रक्षन्तु भवन्तः अन्तिम 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 भागः कः तत्र द्वितीयपङ्क्त्यां भवन् भीष्मात् हा ऊहा तु समीचीना एव किन्तु सर्व एव हि इति यत्र अस्ति तत्र सर्वे एव हि यान्तवान्तादेशसन्धिः भूत्वा अपि च तदनन्तरं यकारलोपः भवति इति अग्रे पश्येम अवगच्छति वा हा अस्तु इति तत्रापि सन्धिः अस्ति सर्व एव हि इत्यत्र
भगिनी पुनः वदतु तत्र किम् अभवत्
तत्र सर्वे एव हि इति अस्ति सर्वे अपि च एव अनयोः मध्ये यान्तवान्तादेशसन्धिः भवति भगिनि एकारस्य ऐ इति आदेश सर्व एव हि इति भवति पुनः यकारस्य लोपः भवति इति सर्वं कार्यं तस्मिन् अस्ति तदर्थं सर्व एव हि इति वयं पश्यामः तत्र
अस्तु धन्यवादः
महोदय
अयनः इति अयनेषु इत्युक्ते स्वभागेषु इति अयनम् इत्युक्ते प्रायः पात् इति अस्ति यथा भवान् वदति दक्षिणायन उत्तरायण इति सूर्यस्य पथ इति अस्ति खलु स्वभागेषु स्व किं
अयनम् इत्युक्ते जर्नि इति खलु भगिनि रामायणम् अपि रामस्य अयनम्
हा हा भगिनि हा तद् दक्षिणायनम् उत्तरायणे यथा महोदय उक्तवान् सूर्यस्य सर्क्युलेशन् यद् भवति तस्य विषये हा अस्तु अग्रे सरला भगिनि
ततः शङ्खाश्च भेदश्च पणवानकगोमुखाः सहसैवाभ्यहन्यन्त स शब्दस्तु मूलो भवत् अत्र शङ्खाश्च शङ्खा विसर्गयोगस्य तत्र विसर्गस्य लोपः भवति अत्र विसर्गसन्धिः अस्ति भैर्यश्च भैर्यः योग च विसर्गलोपः भवति विसर्गसन्धिः अस्ति सहसाभ्यहन्यन्त् इति समस्तशब्दम् अस्ति तत्र सन्धि भवति सहसा योग एव अत्र स्वरसन्धि अस्ति विधिसन्धि सहसा एव आ ए तत्र तस्य स्थाने ऐकार भवति एव योग अभि अत्र अपि स्वरसन्धि अस्ति अकार अवकार उत्तरवती अकार अभि तस्य आदौ अकार तस्य मेलनम् आकार भवति स्वरसन्धि सवर्णदीर्घसन्धि अस्ति अभियोग्य अह्यन्तम् अत्र अपि स्वरसन्धि अस्ति अभि तस्य उत्तरवति ईकार तस्य अनन्तरम् अकार तस्य यकार आदेश भवति यणसन्धि अस्ति अत्र
समीचीनं तर्हि अस्मिन् पदे सर्वे
सर्वे स्वरसन्धि सन्ति
हा स्वरसन्धयः सन्ति
सन्ति.
अपि च शङ्काश्च धैर्यश्च इत्यत्र विसर्गः विसर्गस्य परिवर्तनं जातम् इति तु सत्यम् इति
शकार शकार आदेश भवति
तत्र व्यञ्जनसन्धिः अपि अस्ति इति अग्रे पश्येम.
अस्तु शब्दस्तुमुलो अभवत् शब्दः अत्र विसर्ग अस्ति तस्य अनन्तर तुमुल तकारस्य प्रभावेन सकार आदेश भवति प्रथमं विसर्गस्य लोप भवति तुमुलः अभवत् तत्र विसर्गस्य लोप भवति ओकार आदेश भवति अवग्रह आगच्छति तो विसर्गसन्धि अपि व्यञ्जनसन्धि भवति.
अत्र व्यञ्जनसन्धिः कुतः
अवग्रह भवति केवलं विसर्गसन्धिः अस्ति.
हा तत्र अवग्रहचिह्नं कदा भवति यदा
अकार विसर्गस्य पर अस्ति. विसर्गस्य पूर्वम् अकारः अस्ति विसर्गस्य परः अपि अकारः अस्ति.
अत्र वार्ताका इति चेत् शब्दः तुमुलः खलु तत्र शब्दस्तुमुलः तत्र तु विसर्गसन्धिः एव. अधुना अग्रे गत्वा तुमुलः अभवत् इति अस्ति. अधुना तुमुलः इत्यस्य विसर्गस्य परिवर्तनं भूत्वा तुमुलो इति अभवत् तुमुलो अभवत् तदा स्वरसन्धिः एव अकारः न उच्चार्यते तुमुलो अभवत् इति इति अग्रे पश्येम कीदृशसन्धिः कार्यं किम् इति अग्रे गत्वा आगच्छति. अस्तु इति परिशीलितवन्तः अग्रिम अभ्यासः सः एव अस्ति. गतवर्गे वयं सन्धिपरिचयं प्राप्य महेश्वरसूत्राणि अपि कृतवन्तः. अधुना सप्तमपुटं पश्यन्तु कृपया क्षम्यताम् अष्टमपुटम् अभ्यासः इति यदस्ति तत्र रामप्रिया भगिनी आरम्भं कर्तुम् इच्छति वा अधो निर्दिष्टेषु.
हां भगिनि अधो निर्दिष्टेषु स्थानेषु आदेशः आगमः लोपः प्रकृतिभावः इत्येतेषु अन्यतमं सन्धिकार्यं भवति. तत् किम् इति पुरतः रिक्ते स्थाने यथा उदाहरणं लिखत यथोदाहरणं लिखत. उदाहरणं प्रथमं आश्चार्यवत् च आचार्यव योगः त योगः च तत्र आचार्यव तकारस्य स्थाने चकारः आगच्छति आदेशः भवति योगः च आचार्यवच्च तत्र आदेशः इति अस्ति.
समीचीनं भगिनि एकवारं स्मारयति वा गतवर्गे वयं पठितवन्तः आदेशः आगमः लोपः प्रकृतिभावः इत्युक्ते.
आदेशः इत्युक्ते एकवर्णस्य स्थाने आगच्छति चेत् आदेशः इति. आगमः इत्युक्ते मित्रवत् आगमः इति नूतनवर्णम् आगच्छति वर्णात् पूर्वं वा परं वा नूतनवर्णस्य आगमः इति उच्यते. लोपः इत्युक्ते तद्वर्णम् अदर्शनं भवति यदा विसर्गसन्धिविषये विसर्गः लोपः इति उदाहरणरूपेण. प्रकृतिभावः इत्युक्ते निमित्ते सति अपि लोपादेः अभावः प्रकृतिभावः यदा निमित्तम् अस्ति चेदपि तस्य लोपः न भवति तत् प्रकृतिभावः.
अत्र केवलं लोपः न भवति इति न निमित्ते सत्यपि निमित्तानि सन्ति तथापि लोपादेः अभावः. अत्र लोपादेः इत्यनेन सर्वाणि कार्याणि गृहीतानि आदेशः आगमः लोपः सन्धिकार्यं न भवति निमित्तम् अस्ति किन्तु सन्धिकार्यं न भवति तादृशस्थितिः प्रकृतिभावः इति उच्यते. अस्तु समीचीनं तर्हि प्रथमं करोतु भगिनि.
तु इदं तकारः योगः उकारः योगः इकारः योगः दम्
तकारः इदानीम् उकारस्य स्थाने वकारः आदेशः भवति ईयोगः दम् द्विधम् अत्र आदेशकार्यं भवति
हा आदेशः यतोहि एकस्य स्थाने अपरः वर्णः आगतः इति आदेशः अस्तु समीचीनम् अग्रे सहदेव महोदय
भगिनि प्रहसन् एव प्रहस योगः न योगः इ योगः वा इति प्रहस योगः न योगः इ योगः वा इति प्रहसन्निव चिन्तयामि नकारः आगच्छति इति आगमः
समीचीनं महोदय आगमः आगमः इति किमर्थं वदति नकारः आगच्छति इति सत्यं किन्तु नकारः कुत्र आगच्छति नकारः नकारः कस्यचित् स्थाने आगच्छति वा
स्थाने नास्ति
तर्हि पूर्वस्थितनकारः अपि अस्ति पूर्वस्थित इकारः अस्ति सर्वे वर्णाः यथावत् सन्ति किन्तु अपरः एकः नकारः आगतः इति कृत्वा कीदृशकार्यम् इदं भवान् उक्तवान् एव
आगमः
आगमः अस्तु समीचीनम् अग्रिमम्
नायकाः मम नायका इति विसर्गः योगः योगः मम इति नायका योगः मम इति नायका मम चिन्तयामि विसर्गः लोपः जातः
समीचीनं लोपः अथवा अदर्शनम् अग्रिममपि करोतु कृपया
भ्रमति एव
भ्रमति इव
ओ इव भ्रमत् योगः इ योगः इ योगः व इति भ्रमत् योगः दीर्घ इकारः योगः व इति भ्रमतीव चिन्तयामि इकारः स्थाने दीर्घ इकारः आदेशः भवति
समीचीनं तत्र पूर्वतनवर्णाः गताः खलु तत्र कश्चन परिवर्तनं जातं भ्रमत् अपि च इकारः योगः इकारः आसीत् तदत्र नास्ति तयोः स्थाने इ इति आगतः तदर्थम् आदेशः इति उच्यते अस्तु समीचीनं तर्हि आगमः लोपः आदेशः इति रविप्रकाशमहोदय अग्रे
आं भगिनि स्यात् निश्चितं स्या योगः त् योगः न योगः इष्टितं स्या योगः न योगः न योगः इष्टितम् एकनिमिषः स्यान् निश्चितम् तकारस्य स्थाने नकारादेशः आदेशः
समीचीनम् अतः आदेशः
आदेशः
पूर्वस्थितस्य वर्णस्य अथवा तकारस्य स्थाने नकारादेशः अस्तु अग्रे
अग्रे सः कौन्तेयः स योगः विसर्गः योगः कौन्तेयः स योगः कौन्तेयः स कौन्तेयः विसर्गस्य लोपः भवति
समीचीनम् अग्रे
अग्रे यः एनं या योगः विसर्गः योगः एनं या योगः एनं य एनं यथापि विसर्गलोपः
विसर्गस्य लोपः लोपः अस्तु समीचीनम् अस्तु अग्रे जगन्नाथमहोदय
गुरु उत्तिष्ठ गुरु योग उत्तिष्ठ गुरु उत्तिष्ठ अत्र प्रकृतिभावसन्धि
उत्तिष्ठतः
उत्तिष्ठतः क्षम्यतां
इति कीदृशपदमस्ति वचनं किं तस्य
प्रथमाविभक्ति
इति सत्यं वचनं किम्
बहुवचनं वा
गुरवः बहुवचनं
गुरवः गुरु
तत्र क्रियापदं दृष्ट्वा अपि सूचना प्राप्यते खलु उत्तिष्ठतः यथा गच्छति गच्छति गच्छतः द्विवचने क्रियापदमस्ति अतः गुरु द्विवचनं तर्हि गुरु योगः उत्तिष्ठतः तत्र किम् अभवत् महोदय हा यथावत् तिष्ठतः तर्हि यदि सन्धिः अभविष्यत् कीदृशसन्धिः अभविष्यत्
गुरु तिष्ठतः एव
हा सवर्णदीर्घसन्धिः अभविष्यत् किन्तु तद् न जातम् इति कृत्वा प्रकृतिभावः अस्तु अग्रे महोदय
अमी आश्रमाः अमीयोग आश्रमाः अमी आश्रमाः इति तिष्ठति अत्रापि प्रकृतिभावसन्धि एव नो चेत् अम्याश्रमाः इति भविष्यति
यदि सन्धिः अभविष्यत् अस्तु अग्रे
तस्य कृष्णा अत्र गोपिकाः नृत्यन्ति तस्य कृष्णा अत्र गोपिकाः नृत्यन्ति अत्र एतद् सम्बोधनप्रथमविभक्ति तस्य कीदृशी एतत् एक विशिष्ट
एतदपि एतत् कार्यमपि प्रकृतिभावः यतोहि किमपि परिवर्तनं न जातं कृष्णा इति प्लुतवर्णः अस्ति अग्रे पश्येम प्रकृतिभावः कुत्र कुत्र सम्भवति इति अस्तु अग्रे
अहो योग अस्माकम् अत्रापि अहो अस्माकमेव तिष्ठति प्रकृतिभावसन्धिः नो चेत् अहोस्माकम् इति भविष्यतु
तत्र यान्तवान् आदेशे अहो अस्माकम् इत्यस्य प्रसक्तिः स्यात् किन्तु न भवति इति कृत्वा प्रकृतिभावः अस्तु अग्रे सरेम
भगिनी क्षम्यताम् एकः प्रश्नः
भगिनि
श्रूयते वा अत्र अहो अस्माकम् इति व्यस्तप्रयोगं नास्ति वा तत्र व्यस्तप्रयोगः अपि च प्रकृतिभावः तयोः भेदः कः
व्यस्तप्रयोगः इत्युक्ते भवती किं वक्तुम् इच्छति समासस्थले
यत्र इत्युक्ते सन्धि इत्युक्ते सन्धि तु विकल्पः एव खलु यदा यत्र समासः अस्ति तत्र तु सन्धिः विकल्पः नास्ति परन्तु वाक्ये तु विकल्पः एव विवक्षानुगुणमेव भवति खलु तर्हि अहो अस्माकम् इति अत्र सन्धिविवक्षा नास्ति चेत् अहो अस्माकम् इति पदद्वयमेव तिष्ठति खलु
इत्युक्ते वाक्यस्तरे वैकल्पिकः सन्धिः न अभविष्यत् इति भवती पृच्छति खलु
हा 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 सत्यं तर्हि अत्र अहो अस्माकम् इति तत्र सन्धिः एव न अभवत् इति वा प्रकृति तत्र मम किञ्चित् स्पष्टता नास्ति तत्र
सन्धिः एव न अभवत् इति एका वार्ता दशम अभ्यासे अपि तथैव अस्ति पश्य कृष्ण अत्र गोपिकाः नृत्यन्ति इत्यत्र खलु तदपि एकं वाक्यमेव सन्धिः करणीयः इति नियमः नास्ति इति तु सत्यम् किन्तु यत्र सन्धेहे अवसरः सन्धिः कर्तुम् इच्छा अस्ति तथापि अत्र सन्धिः न भवति चेत् प्रकृतिभावः इति अहं चिन्तयामि इत्युक्ते प्रथमतया वैकल्पिकः एव वाक्यस्तरे इति तु सत्यम् अहो अस्माकम् अथवा पश्य कृष्ण अत्र गोपिकाः नृत्यन्ति इति वैकल्पिकः इति तु सत्यम् अस्तु अस्माकं विकल्पद्वयं प्रथमतया सन्धि करणीयं द्वितीयं सन्धि न इष्यते इति विकल्पद्वयं सन्धिं न कुर्मः चेत् तद् भिन्नः विकल्पः किन्तु सन्धि कर्तुम् इच्छा अस्ति किन्तु न क्रियते अथवा सन्धिः न भवति चेत् प्रकृतिभावः इति वक्तुं शक्यते इति मम अवगमनम्
अस्तु तर्हि अहो अस्माकम् इति अत्र अस्ति अत्र सन्धि कर्तुम् अवसरः अस्ति इच्छा अपि अस्ति इति किञ्चित् इत्युक्ते इच्छा अस्ति इति अहं कथं जानामि इति मम प्रश्नः इत्युक्ते अत्र लोपः भवति चेत् वयं निश्चयं तत्र यत्र प्रकृतिभाव अत्र उदाहरणमस्ति पूर्वस्मिन् पुटे अनादियोगः उभौ अत्र तु किञ्चित् स्पष्टता अस्ति अपि च यत्र
अवग्रहचिह्नं
भवति
तत्रापि सन्धिकरणस्य आवश्यकता नास्ति श्लोके अनादियोगः उभौ इति तिष्ठति चेत् तत्र विशेषणविशेषभावः सन्धि कर्तव्यम् इति वाक्यस्तरे कोऽपि नियमः नास्ति किन्तु सन्धि कुर्मः इति विवक्षा अस्ति चेत् वक्तुः मनसि अथवा लेखकस्य मनसि किन्तु सन्धिः न क्रियते चेत् तदा प्रकृतिभावः इति एव अवगन्तुं शक्नुमः तावदेव
भगिनि एकः प्रश्नमस्ति प्रकृतिभावः वा सन्धिकार्यं वा इति निर्णयं कथं करणीयम्
प्रकृतिभावः अपि सन्धिकार्यमेव वस्तुतः हा इत्युक् सन्धि यदा भवति एतानि चत्वारि कार्याणि भवति आदेशः आगमः लोपः प्रकृतिभावः प्रकृतिभावः अपि सन्धिकार्यः एव किन्तु यथावत् तिष्ठतः वर्णौ इति प्रकृतिभावः इत्यस्मिन् कार्ये
यथावत् तिष्ठति वा न तिष्ठति इत्यस्य निर्णयं किं कथं करणीयं
तत्रापि प्रकृतिभावस्थले नियमाः सन्ति महोदय अनादि उभौ प्लुतवर्णाः सन्ति चेत् तत्र सन्धिः न करणीया सन्धि कर्तुं विवक्षा सत्यामपि प्लुतवर्णाः सन्ति चेत् सन्धिः न भवति इति प्रकृतिभावः अनादियोगः उभौ इत्यत्रापि अपि च यद् जगन्नाथमहोदयेन पठितं गुरुयोगः उत्तिष्ठतः तत्र ऊकारान्तद्विवचनम् ईकारान्तद्विवचनम् अनादि इति तत्र सन्धिः न कर्तुं शक्यते अतः प्रकृतिभावः इति उच्यते इति नियमाः सन्ति कुत्र प्रकृतिभावः भवति इति
समीचीनं धन्यवादः
अस्तु अग्रे
अत्र अहो अहो इति अव्ययम् अस्ति इति महोदयेन उक्तं पूर्वं
सत्यं
अव्ययम् अस्ति चेत् अत्र प्रगृह्य प्रकृतिभावः अस्ति अतः नित्यं प्रकृतिभावः एव
प्लुत किमपि अस्ति खलु प्रगृह्य
प्लुतप्रगृह्य नित्यम् अत्र प्रकृतिभावः एव नित्यं सन्धिः न भवति
समीचीनं भगिनि हा इति तु अस्ति इति नियमः खलु यथा कृष्ण तत्र प्लुत हा प्रगृह्यसंज्ञकः अतः अत्रापि प्रकृतिभावः सन्धिः न भवति किन्तु निमित्तं तु अस्ति खलु
आम् आम्
सन्धिः न भवति
सन्धिः न भवति.
अस्तु,
तत्र क्षम्यतां, तत्र निमित्तं किं? तत्र कृतवारं वा लिखामि लिखिष्य
इदं सूत्रमस्ति भगिनि, करपत्रे आगच्छति.
अस्तु, धन्यवादः.
कृतप्रगृह्य अचिनित्यम्
इति सूत्रम्. कृतवर्णाः तु जानीमः, प्रगृह्यवर्णाः के इति सूत्रस्य पठनसन्दर्भे जानीमः. अस्तु, अग्रे लक्ष्मी भगिनी खलु, जगन्नाथमहोदय पठितवान्, लक्ष्मी भगिनी.
अग्रिमाभ्यासः वा
अग्रिमाभ्यासः
कस्यचित् अध्यायस्य सप्तमे श्लोके
तत्यक्त्वा ततः अदौ भागे
एतेषु वाक्येषु संहिता अस्ति परन्तु सन्धिकार्यं नास्ति. तत्रत्यानि पदानि पृथक् पृथक् लिखत. अनार्यजिष्टं मस्वर्ग्यं मकीर्तिकरमर्जुन. अत्र प्रथमं पदमस्ति अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन. अत्र केवलं वाक्येषु संहिता इत्युक्ते सामीप्यमेव अस्ति, तदर्थं केवलम् अत्र वर्णमेलनमेव अस्ति, सन्धिकार्यं न भवति, न अभवत्.
अग्रे
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् अत्रापि सन्धिकार्यं नास्ति. आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् योगः सखीन्.
अग्रे भगिनि,
यत्तत् तामसमुच्यते, अत्र यत् योगः तत् योगः तामसं योगः उच्यते, यत्तत् तामसमुच्यते इति भवति. अनन्तरमपि
समापयतु इमं भागं.
संवादमिमश्रौषमद्भुतम्. संवादम् इमम् अश्रौषम् अद्भुतम्. चत्वारि पदानि सन्ति. संवादं योगः, इमं योगः, अश्रौषं योगः, अद्भुतम्.
अग्रे
योगेश्वरात् कृष्णात् समा योगेश्वरात् कृष्णात् साक्षात् कथयतः. अत्र योगेश्वरात् योगः, कृष्णात् योगः, साक्षात् योगः कथयतः. योगेश्वरात्
एषु पदेषु यद्भवत्या यानि भवत्या पठितानि तत्र संहिता अस्ति वा? संहिता इत्युक्ते सन्निधिः, नैकट्यं. संहिता अस्ति वा एतेषु?
सामीप्यम् अस्ति परन्तु केवलं वर्णमेलनं.
हा, सन्धिः नास्ति इति. तत्र वारं वारम् अत्र उक्तमस्ति वर्णानाम् अतिशयतः सन्निधिः सन्धिः इति. किन्तु मनसि स्थातव्यं यत् केवलं सन्निधिः इत्यनेन सन्धिः न सिद्ध्यति. अत्रापि सन्निधिः अथवा संहिता नैकट्यमस्ति खलु? किन्तु आगमः, आदेशः, लोपः, प्रकृतिभावः इमानि कार्याणि न जातानि इति कृत्वा सन्धिः नास्ति इति. अस्तु, अग्रे सरेम. राधिका भगिनी कृपया.
अस्तु. अवधेयं, सन्धिकार्यं कदा करणीयं, कदा न करणीयम् इति प्रश्नस्य उत्तरम् इदं भवति. एकम्, एकस्मिन् पदे सन्धिः नित्यं नित्यं कर्तव्यः, यथा आविस् योगः तः आविष्टः सकारस्य स्थाने षकारः आगच्छति सकारस्य स्थाने ठकारः आगच्छति अत्र सन्धिः नित्यं करणीयम् इति सः इति प्रत्याहारः प्रत्याहारः
कुत्र भगिनि कुत्र अस्ति भवती आविष्टः इत्यस्मिन् अस्ति खलु
आम् आविष्टः
तः इत्युक्ते
सः इत्युक्ते प्रत्याहारः इति मन्ये
न न तत्र कृतः पठितः इति क्त प्रत्ययः अस्ति खलु लिखितः तद्वदस्ति तः इति प्रत्ययः प्रत्ययस्य योजनेन आविष्टः इति पदस्य निर्माणं जातम् अत्र अतः एव अत्र उक्तम् एकस्मिन् पदे सन्धिः नित्यं तत्र विकल्पः एव नास्ति प्रायः विश् इति धातुः इति चिन्तयामि किञ्चित् सन्धिकार्यं भूत्वा आविष्टः इति अभवत् अस्माकं विकल्पः एव नास्ति सन्धिः करणीयः एव इति
द्वितीयं अस्तु अस्तु भगिनि द्वितीयं धातु उपसर्गयोः धातु उपसर्गयोः सन्धिः नित्यं कर्तव्यः यथा उप आविशत् उपाविशत् अत्र उप इति पदस्य अन्तिमवर्णः अकारः आविशत् इति पदस्य प्रथमवर्णः अकारः अकारयोजने दीर्घ आकारः आगच्छति अत्र सन्धि भवति तृतीयं समासे सन्धिः नित्यं कर्तव्यः यथा लाभ अलाभौ लाभालाभौ लाभ इति पदस्य अकार अन्तिमवर्णः अलाभौ इति पदस्य अकारः प्रथमवर्णः अकारयोजने आकारः आगच्छति सन्धिकार्यम् अस्ति अत्र वाक्ये तु सन्धिः विकल्पेन भवति यथा देवदत्तो ग्रामं गच्छति अत्र सन्धिद्वयं कृतं प्रथमं देवदत्तः ग्रामं देवदत्तो ग्रामं विसर्गस्य स्थाने ओकारः आगच्छति विसर्गसन्धिः द्वितीयं ग्रामं गच्छति अत्र अनुस्वारसन्धिः आगच्छति देवदत्तः ग्रामं गच्छति अत्र सन्धिकार्यं न कृतं सन्धि
हा अस्तु इदानीं कुत्र कुत्र सन्धिः भवति कुत्र विकल्पः इति सर्वं एतेषु चतुर्षु बिन्दुषु विवृतमस्ति तन्निमित्तम् एकः श्लोकः अस्ति अधोभागे टिप्पणीरूपेण अस्ति पठति वा
अस्तु संहितैकपदे नित्या नित्या धातु उपसर्गयोः नित्या समासे वाक्ये तु सा विवक्षाम् अपेक्षते अस्तु संहित एकपदे
इति प्रथमः बिन्दुः
संहिति एकपदे
संहिता एकपदे संहिता यदा भवति एकस्मिन् पदे तदा नित्यं
करणीयं धातु उपसर्गयोः अपि नित्यं करणीयं समासे अपि नित्यं करणीयं वाक्ये तु विवक्षाम् अपेक्षते विकल्पेन करणीयम् इति
हा इत्युक्ते विवक्षा इत्युक्ते वक्तुः इच्छा इति यथा जिज्ञासा अस्ति ज्ञातुम् इच्छा तद्वत् विवक्षा इति
अस्तु
अस्तु भगिनि तर्हि अग्रिमभागमपि एकवारं पठतु सन्धिः त्रिविधः
सन्धिः त्रिविधः स्वरसन्धिः अच् सन्धिः
व्यञ्जनसन्धिः हल् सन्धिः विसर्गसन्धिः च इति. स्वरस्वरसन्धिः, स्वरात् स्वरे परे स्वरसन्धिः भवति. स्वरः योगः स्वरः. व्यञ्जनसन्धिः व्यञ्जनात् स्वरे व्यञ्जने वा परे व्यञ्जनसन्धिः भवति. व्यञ्जनं योगः वर्णः. विसर्गसन्धिः विसर्गात् स्वरे व्यञ्जने वा परे विसर्गसन्धिः भवति. विसर्गः योगः वर्णः.
समीचीनमस्ति इति जानीमः एव. अधुना अग्रे पुष्पा भगिनी उदाहरणानि परिशील्य. पुष्पा भगिनी अस्ति वा? कीदृशसन्धिः इति वक्तव्यः.
यद्यपि योगः एते यद्यप्येते अत्र स्वरसन्धिः योगः ए अस्ति. एकं तु योगः इदं त्विदं तत्र स्वरसन्धिः उं योगः इ. आत्मानि ये आत्मनि एव आत्मनि योगः एव आत्मन्येव तत्र तु स्वरसन्धिः अस्ति इ योगः ए. यावत् योगः एतान् यावदेतान् तत्र व्यञ्जनसन्धिः अस्ति तु योगः ए दकारः आयाति. दे अस्ति तु योगः ए दे अस्ति. क्रोधात् योगः भवति क्रोधाद् भवति अत्र तु व्यञ्जनसन्धि तु तकारः दकारः आयाति. यत् योगः मनः यन् मनः तकारस्थाने नकारः आयाति व्यञ्जनसन्धिः. तान् तितिक्षवस्व तान् स्थितिक्षस्व तत्तु व्यञ्जनसन्धिः अस्ति न विसर्गसन्धि.
न न किमर्थं विसर्गसन्धिः? विसर्गः दृश्यते वा अत्र?
अनुस्वारः
हा अनुस्वारः आगच्छति इति सत्यं, किन्तु अस्माकं निकषः कः अत्र? व्यञ्जनात् व्यञ्जनात् परं व्यञ्जनं तावदेव, अपि च परिवर्तनं. स्वरात् परः स्वरः अस्ति चेत् तत्र स्वरसन्धिः, व्यञ्जनात् परः कश्चन वर्णः अस्ति चेत् तत्र व्यञ्जनसन्धिः. अग्रे
अत्र सकारः तु आयाति.
अग्रे पठेम भगिनि हल्सन्धिविषयः.
शूराः योगः मदर्ते शूरा मदर्ते अत्र विसर्गसन्धिः
विसर्गस्य लोपः अभवत्. अस्तु
विसर्गस्य लोपः भवति. श्वेतैः योगः हयैः श्वेतैर्हयैः तत्तु विसर्गसन्धिः ऋकारः आयाति. विसर्गकारः आयाति. धीरः तत्र धीरस्तत्र तत्र विसर्गस्थाने सकारः आयाति विसर्गसन्धिः. मे अच्युत मेच्युत अत्र तु
अत्र
अकारस्य
स्वरात् परः स्वरः अस्ति खलु, कः सन्धिः इति मास्तु, अधुना स्वरात् परः स्वरः अस्ति.
स्वरात् परः स्वरः अस्ति स्वरसन्धिः.
स्वरसन्धिः एव स्वरस्य एव विकारः जातः इति कृत्वा स्वरसन्धिः. अस्तु हा इति सन्धिविषयस्य कश्चन परिचयः जातः. सन्धिः त्रिविधः, स्वरसन्धिः व्यञ्जनसन्धिः विसर्गसन्धिः इति, अपि च सन्धिकरणसमये चत्वारि कार्याणि सिद्ध्यन्ति, आदेशः आगमः लोपः प्रकृतिभावः इति सारांशः आसीत् अस्य पाठस्य. अस्तु, दशमे पुटे इतोपि किञ्चित् अस्ति, तत् पठेम. अखिला भगिनी पठति वा?
आं भगिनि. एतानि वाक्यानि सावधानं पठत. विजया गीतं पठति. गोविन्दः प्रतिदिनं क्षम्यताम् विजया गीतां पठति. गोविन्दः प्रतिदिनं कार्यालयं गच्छति. सर्वे स्वीयानि कार्याणि अकुर्वन्. भवन्तः विलम्बं मा कुर्वन्तु. एतेषु वाक्येषु सर्वेपि शब्दाः पदानि इति उच्यन्ते. तानि गणद्वये विभक्तुं शक्यानि. यथा एकं विजया गीता गोविन्दः प्रतिदिनं कार्यालयं सर्वे स्वीयानि कार्याणि भवन्तः विलम्बः मा. द्वितीयं पठति गच्छति अकुर्वन् कुर्वन्तु.
तर्हि किञ्चित् वदतु भगिनि अत्र.
हा, अत्र वाक्यानि दत्तानि सन्ति. अत्र यानि यानि पदानि तेषु वाक्येषु सन्ति तेषां विभागद्वयं कर्तुं शक्नुमः. इत्युक्ते तत्र गणद्वयम् इति वक्तुं शक्नुमः. प्रथमे गणे तत्र विजया गीता गोविन्दः इति इत्यादीनि पदानि भवन्ति. द्वितीये गणे पठति गच्छति अकुर्वन् कुर्वन्तु इति क्रियापदानि सन्ति. तर्हि तावदेव अस्ति खलु भगिनि एतावत्पर्यन्तं?
सत्यं सत्यं. प्रथमगणे कीदृशानि पदानि भगिनि?
प्रथमगणे वस्तुतः नामपदानि खलु.
हा, नामपदानि. द्वितीयगणे क्रियापदानि. अपि च नामपदानि इति यदा वयं वदामः तत्र अव्ययानि अपि अन्तर्भूतानि भवन्ति. व्याकरणदृष्ट्या अव्ययं भवतु नामपदं भवतु, एते सर्वे सुबन्ताः इति उच्यते. क्रियापदानि तिङन्ताः इति उच्यते इति अग्रे अस्ति. यतोहि अत्र मा इति अस्ति, मा तु अव्ययपदमस्ति. अन्यत् किं तत्र? हा, प्रतिदिनम् इति अव्ययीभावसमासः, तर्हि तदपि अव्ययमेव स्यात् इति कृत्वा नामपदानि अव्ययपदानि प्रथमगणे, क्रियापदानि द्वितीयगणे अस्ति. अस्तु भगिनि, अग्रे प्रथमगणस्य विषये.
प्रतिदिनम् अव्यय अस्ति.
आं भगिनि, अव्ययीभावसमासः, दिनं दिनं प्रति इति प्रतिदिनम् इति अग्रे पश्येम. भवतु नाम, किन्तु सुबन्तः इति यदा वदामः तत्र नामपदानि अव्ययमपि अन्तर्भूतम्.
एते सुबन्ताः, सुप् अन्ते यस्य सः सुबन्तः. सु औजस् अम् औक्षस् ठाभ्यां भिस् ङेभ्यां भ्यस् न्यसीभ्यां भ्यस् न्यस् औस् आम् नी ओस् सुप्. एते एकादश सुप्रत्ययाः. प्रातिपदिकात् परे एते प्रत्ययाः भवन्ति. तदा रामः रामौ रामाः इत्यादीनि एकादशरूपाणि सिद्ध्यन्ति. अहं किम् उक्तवती, क्षम्यताम्. एकविंशति रूपाणि सिद्ध्यन्ति. यथा रामयोगः सु रामः, रामयोगः औ रामौ, रामयोगः जस् रामाः. तर्हि तत्र सु औ जस् इत्यारभ्य नि औ ओ सुप् इति पर्यन्तम् एकविंशति सुप्रत्ययाः सन्ति. यदा प्रातिपदिकस्य अनन्तरं एते प्रत्ययाः आगच्छन्ति तर्हि तयोः मेलनेन यानि पदानि निर्दिष्टानि तेषां नामकरणं कृतं सुबन्तः इति. तर्हि सुबन्तः इति प्रथमगणे स्थितानि पदानि सुबन्तः इति उच्यन्ते.
समीचीनमस्ति. तर्हि सर्वैः अवगतं खलु? सुप् इति यथा प्रत्याहारः आसीत् अस्माभिः दृष्टं माहेश्वरसूत्रेषु, प्रत्याहारः आसीत् इक् वा अण् वा, तद् तद्वदेव सुप् इति. प्रथमसु इत्यस्मात् आरभ्य तत्र अन्तिमप्रत्ययः सुप् इति अस्ति, तस्य अन्तिमवर्णः पकारः. तावत्पर्यन्तं सुप् इति कश्चन प्रत्याहारः इति स्वीकुर्मश्चेत् तत्र एतानि एते सर्वे प्रत्ययाः सुप् प्रत्ययाः इति उच्यन्ते. नामपदस्य निर्माणवेलायां यथा भगिनी उक्तवती सुप् प्रत्ययाः युज्यन्ते प्रातिपदिकात्, अतः एव भिन्नानि रूपाणि भवन्ति प्रातिपदिकस्य, एकविंशतिरूपाणि. तर्हि सुबन्ताः इत्युक्ते नामपदानि इति वक्तुं शक्नुमः. अस्तु, अग्रिमगणस्य विषये बालसुब्रह्मण्यमहोदय किञ्चित् पठति वा?
एते तिङन्ताः.
तिङन्ताः,
एते तिङन्ताः, तिङन्ते यस्य सः तिङन्तः. तिप्तस् जि, सिप्तस्थ, मिप्बस् मस् परस्मैपदं परस्मैपदरूपाणि. त आथां झ, ठास् आथां ध्वम्. इङ् बहि महिङ् आत्मनेपदरूपाणि. एते अष्टादश तिङन्त तिङ्प्रत्ययाः. धातोः परे एते प्रत्ययाः भवन्ति, तदा भवति, भवतः, भवन्ति इत्यादिरूपाणि, इत्यादीनि रूपाणि सिद्ध्यन्ति. यथा भूयोगतिप् भवति, भूयोगतस् भवतः, भूयोगजि भवन्ति. धातुः आत्मनेपदी चेत् तङ्प्रत्ययाः अन्तिमा नव रूपाणि भवन्ति. यथा वन्द योगत वन्दते, वन्द योग आतां वन्देते, वन्द योगज वन्दन्ते इति. सुबन्तानां तिङन्तानां च पदम् इति संज्ञा. तिङन्तानां सुबन्तानां च समूहः वाक्यं. तद्दुःखम् अमरकोशे तिङ् सुबन्तचयोः वाक्यम् इति.
तिङ् सुबन्तचयो वाक्यम्.
तिङ् सुबन्तचयो वाक्यम्.
अत्र भगिनि वन्दयोगः वन्दति कथम् आयाति?
तत्र तकारस्य स्थाने लट्लकारः खलु भगिनि, लटि भिन्नः प्रत्ययः आगच्छति. अस्तु महोदय. भगिनि, तत्तु तिङन्तरूपाणां सिद्धिविषयः अस्ति. अस्तु, लट्लकारे तकारः कथञ्चित् परिवर्तते इति एका प्रक्रिया अपि अस्ति. तदर्थं वन्दते, आतामपि परिवर्तितं खलु, वन्देते इति अस्ति भिन्नेषु लकारेषु भिन्नभिन्नप्रत्ययः इति. किन्तु मूलतिङ् प्रत्ययः एते बालसुब्रह्मण्यमहोदय अधुना वदति. महोदय,
तिङन्त परस्मैपदं चेत् तिङन्तप्रत्ययाः स्टिप्तस्जि, सिप्तस्थ, मिप्स्म इति प्रत्ययाः सन्ति. आत्मनेपदं चेत् प्रत्ययाः तासां झ, तासां ध्वम्, इह बहि महिङ् इति
भवति. महोदय, तर्हि आहत्य तिङ् इत्युक्ते किं महोदय?
तिङ् इति प्रायः क्रियापद.
हा हा, किन्तु यथा यथा सुप् रक्तवर्णे सु इति अङ्कितम्, अनन्तरं प इति अङ्कितं खलु, तर्हि सुप् इत्यस्मिन् एते सर्वे प्रत्ययाः अन्तर्भूताः. सुप् इति आरम्भः, प इति तस्य सीमा इति कृत्वा.
अन्त्य सर्वे अपि प्रत्ययाः तिङ् इति आहत्य उक्तः किल?
समीचीनम्. समीचीनम् इत्येव अस्ति. तर्हि यथा सुबन्तानां निर्माणसमये सुप् प्रत्ययाः प्रयुज्यन्ते, तद्वत् क्रियापदानां निर्माणसमये एते अष्टादश तिङ्प्रत्ययाः उपयुज्यन्ते इति कृत्वा क्रियापदानि तिङन्तानि इति अपि उच्यते. इति अस्ति. अपि च अत्र उक्तं तिङ् सुबन्तचयो वाक्यम् इत्युक्ते महोदय
तिङ् सुबन्तयोः तिङ् तिङन्तपदं च सुबन्तपदम् उभयोः अपि संयुज्य वाक्यं भवति.
तिङन्तानि इत्युक्ते क्रियापदानि,
क्रियापदानि सुबन्तानि नामपदानि उभयोः संयुज्य वाक्यम् एकं भवति.
समीचीनं. चयः इत्युक्ते सङ्ग्रहः इति, एतयोः चयः सङ्ग्रहः एव वाक्यम् इति आसीत्.
एकः प्रश्नः अस्ति, अत्र सुबन्तानां तिङन्तानां च पदम् इति संज्ञा इति अस्ति, तद्विषये किञ्चित् वदति वा?
सुबन्तानां तिङन्तानां च पदम् इति संज्ञा. अस्तु, व्याकरणलोके पदम् इत्युक्ते किम्? पदम् इति किमपि न, अक्षरम् इति जानीमः, एकम् अक्षरम् अ अथवा आ इति कुत्रचित् वाक्ये भवति चेत् तत् पदम् इति वक्तुं शक्नुमः वा? नास्ति खलु. हा, कोऽपि स्वरः अथवा किमपि व्यञ्जनं तत् कुत्रचित् वाक्ये भवति चेत् पदम् इति न वक्तुं शक्नुमः. पदम् इति निर्देशः तदा भवति यदा कश्चन शब्दः सुबन्तः वा तिङन्तः वा भवति. सुबन्ताः इत्युक्ते नामपदानि, तिङन्ताः इत्युक्ते क्रियापदानि इति.
यदि वयं रामः योगस्सु रामस्सु इति अस्ति चेत् तत् पदं वा?
नास्ति. रामः प्रातिपदिकं, सु इति प्रत्ययः. अस्तु, इति रामः इति अन्ततो गत्वा यद् निष्पन्नं भवति तदेव पदम्.
अस्तु
अस्तु.
आम्, धन्यवादः.
अस्तु भगिनि, इति अस्ति. तर्हि अवशिष्टसमये किञ्चित् करपत्रं पठेम, वस्तुतः समापयामः इति योजना आसीत्. हा भगिनि,
रामयोगसु राम पदान्ते भवति अत्र
पदान्तकार्यं वा इति पृच्छति वा भवती?
पदान्तस्य निर्माणे पूर्वं पद अस्ति, अपदान्तं पद भवति.
राम इत्यस्य प्रातिपदिकसंज्ञा भवति भगिनि, न तु पदसंज्ञा. किन्तु कुत्रचित् समासकार्येषु प्रातिपदिकस्य पदसंज्ञा आगच्छति इति तु सत्यं, परन्तु अत्र रामः इति प्रातिपदिकं न तु पदं, सु इति प्रत्ययः, तदा रामः इति यद् निष्पन्नं भवति तदेव पदम्.
वयं सूत्रेषु पदान्ते पदान्ते, सो महोदय वदति यदि पदनिर्माणं भवति तत्र पदान्ते अस्ति पदम्.
अत्र तु अपदान्तमेव, रामः रामौ इति सत्यमेव, किन्तु कुत्रचित् प्रातिपदिकेषु अपि पदसंज्ञा आरोपितं भवति.
अस्तु, धन्यवादः.
अस्तु भगिनि. अस्तु, करपत्रं किञ्चित् पठेम यावत् शक्यम् अद्य दशनिमेषेषु. पाणिनीयं सूत्रं कथं पठनीयम् इति करपत्रं. राजी भगिनी, करपत्रम् उद्घाटितमस्ति वा?
आं भगिनि, पठामि वा?
हा, पठतु भगिनि.
यन् सन्धिं बहवः जानन्ति, यथा यदि योगः अपि ई योगः ई या, यद्यपि अत्र इकारस्य स्थाने यकारादेशो भवति. इकारस्य स्थाने जकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते. व्याकरणे कार्याणि एतादृशानि भवन्ति. आदेशः पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः, यदि योगः अपि यद्यपि. आगमः वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. पठन् योगः आगच्छति, न आगमः पठन्नागच्छति. लोपः वर्णस्य अदर्शनं. बालकः योगः इच्छति, विसर्गः लोपः बालक इच्छति. कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति. यण् सन्धिः एकं कार्यम्, अतः तस्य विधानार्थं सूत्रमस्ति. सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम.
एतावत्पर्यन्तं किञ्चित्
किञ्चित् यण् सन्धिः यण् सन्धिं वयं सर्वे जानीमः. यथा यकारस्य स्थाने यकारः योगः इकारः योगः अकारः आगच्छति चेत् इकारस्य स्थाने यकारः आदेशः भवति. उदाहरणार्थं यदि योगः अपि प्रथम पदस्य अन्तिमवर्णः यकारः अन्यपदस्य आदिमवर्णः अकारः इकारः योगः अकारः इकारस्य स्थाने यकारः आगच्छति. तदेव यण् सन्धिः इति वयं वदामः. त्रिविधं कार्याणि सन्ति: आदेशः, आगमः, लोपः. आदेशः यद्येव एकवर्णस्य स्थाने पूर्वं सिद्धस्य वर्णस्य स्थाने अन्यवर्णः उदयः. आगमः इत्युक्ते वर्णात् पूर्वं वा अथवा परं वा अन्यवर्णस्य उदयः. लोपः इत्युक्ते वर्णस्य अदर्शनं.
सत्यम् इति अस्ति. अस्तु अग्रे भगिनि.
इकोयनचि इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये. इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अष्टः इति ज्ञेयम्. इकः षष्ठ्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदमिदं सूत्रं. संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम्. इकः स्थाने इत्युक्ते इक् प्रत्याहारः इ ऊर्विल् ऋ. इकः स्थाने यण् या वर्णः आदेशः भवति. यण् इत्युक्ते एकनिमिषं भगिनि, सूत्राणि महेशसूत्राणि
पञ्चमपुटे अस्ति. महेश्वरसूत्राणि
इकः इत्युक्ते इ ऊर् यण् इत्युक्ते यवरल. इकः स्थाने यण् आदेशः भवति अचिपरे इत्युक्ते अचिवर्णः अस्ति चेत्.
हा इति कश्चन आस्वादः अस्ति सूत्रस्य द्वारा. सूत्रस्य द्वारा कथं सन्धिकार्यं कारयितुं शक्नुमः एतावत्पर्यन्तम् एवमेव वर्णयोः परिशीलनेन वयं जानीमः. अस्तु स्वरसन्धिः, व्यञ्जनसन्धिः इत्यादिकं. किन्तु कस्यचित् सन्धेः कार्यार्थम् एकं सूत्रं भवति, तेन सूत्रेण सन्धिकार्यं विहितं भवति. इकोयणचि इति यण्सन्धिविधायकं सूत्रं. हा अपि च भगिन्या यदा उक्तम् उपरितनसूत्रे इक् इति एकः प्रत्याहारः, यण् इति अपि एकः प्रत्याहारः, अच् इति अपि एकः प्रत्याहारः अस्ति. अस्तु, पाणिनीयसूत्रेषु प्रत्याहाराणां महत्त्वमस्ति. यतोहि पाणिनिः इच्छति यत् सूत्रं यावत् लघुः स्यात् तावत् अपेक्षते इति व्याकरणक्षेत्रे. लाघवम् इच्छति पाणिनिः, तदर्थं प्रत्ययानाम् अथवा महेश्वरसूत्राणां निर्माणं जातम्. अधुना इक् इति वदति चेत् अस्मिन् सूत्रे इ उ लृ एते सर्वे वर्णाः गृहीताः. यण् इति वदति चेत् यथा भगिनी उक्तवती यवर ल सर्वे वर्णाः अपि गृहीताः. अच् इत्युक्ते भगिनि
सर्वे सर्वे स्वरवर्णाः.
हा अस्तु, इत्यनेन लाघवं जातं खलु. पाणिनिः किम् उक्तवान्? इकः स्थाने यण् स्यात् अचि परे. अस्तु, यदि लाघवं न इष्यते चेत् तर्हि इकारस्य स्थाने यकारः, उकारस्य स्थाने वकारः, तदा वक्तव्यं भवति. पाणिनिः लाघवम् इच्छति, अतः प्रत्याहारस्य निर्माणम् अथवा माहेश्वरसूत्राणां निर्माणं जातम्. अपि च कस्य स्थाने किम् आगच्छति इत्युक्ते इकारस्य स्थाने यकारः एव किमर्थम्, उकारस्य स्थाने वकारः एव किमर्थम् इत्यस्यापि निर्देशः प्राप्यते पाणिनीयसूत्रेषु. इति एकम् उदाहरणमस्ति. अस्तु अग्रे पठतु भगिनि.
उपरितने सूत्रे इक् यण् अच् इति त्रयः प्रत्याहाराः सन्ति. प्रत्याहारः नाम वर्णानां समूहः. एष त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु. इकोयनचि इति सूत्रं यथा तथा पाणिनेः अष्टाध्याये इति ग्रन्थे बहूनि सूत्राणि सन्ति. तानि सूत्राणि कार्यं निर्दिशन्ति हैलि कोडिफैड् लाङ्ग्वेज् इत्यस्य माध्यमेन. कोडिफैड् किमर्थम् इति चेत् येन प्रत्येकं सूत्रं लघु स्यात् अपि च येन ग्रन्थे आहत्य सूत्राणां सङ्ख्या न्यूनातिन्यूनं स्यात्. तर्हि सङ्क्षेपार्थं कोड् निर्मितं पाणिनिनाः कोड् इत्यस्य माध्यं किम्? विभक्तिः. इयं विभक्तिपद्धतिः का इति अग्रे पश्येम. तदपि वयं
हा इत्युक्ते इको यण् अचि अस्तु. इको यण् अचि इत्यस्मिन् तत्र
त्रीणि प्रत्याहाराः सन्ति.
हा प्रत्याहाराः सन्ति. अपि च अत्र उक्तं वारं वारं यत् हैली कोडिफैड् लाङ्ग्वेज् अस्ति इति. कोड् निमित्तं पाणिनिना विभक्तेः प्रयोगः कृतः. इकः इति षष्ट्यन्तम् अस्ति.
करेक्ट्. इकः षष्टि, यन् प्रथमान्तम्, अचि सप्तम्यन्तम्.
सप्तम्यन्तम् अस्ति. तर्हि प्रत्येकं विभक्त्याः एकः अर्थः अस्ति. षष्ट्यन्तम् इत्युक्ते किं, प्रथमान्तम् इत्युक्ते किम्, सप्तम्यन्तम् इत्युक्ते किं, प्रत्येकं विभक्त्याः अर्थः अस्ति. तेन माध्यमेन पाणिनिः बहु लघुरीत्या कार्यं निर्दिशति इति अष्टाध्याय्याः महत्त्वमस्ति, सौन्दर्यञ्च. न्यूनातिन्यूनसूत्रेषु एकस्मिन् ग्रन्थे सर्वं संस्कृतभाषायाः मानचित्रम् इति, मेप् इति कल्पितमस्ति. उपचतुस्सहस्र सूत्राणि सन्ति अष्टाध्याय्यां, तावन्ति सूत्राणि एव. तैः पूर्णसंस्कृतभाषायाः मानचित्र इव अस्ति कल्पितम् इति उच्यते पाणिनिना. अस्तु, इदानीम् अग्रे सूत्राणां पद्धतिः कीदृशी इति पश्येम. विद्या भगिनी.
आं भगिनि, पाणिनेः सूत्राणां पद्धतिः, पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः. पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. येषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. षष्टिविभक्ति स्थाने प्रथमाविभक्तिः आदेशः, आगमः, नामकरणं. सप्तमीविभक्तिः पूर्वकार्यं. पञ्चमीविभक्तिः परकार्यं. तृतीयाविभक्तिः संयोजनम् इति. पाणिनिः सूत्रद्वारा पदस्य निर्माणं कर्तुम् इच्छति. पदानि कथं निष्पन्नानि इति, तदर्थं सूत्राणि विरचितानि. आधिक्येन सूत्रेषु कार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः. अमुकवर्णः इत्युक्ते अहं न जानामि.
सो अण्ड् सो इति
इत्युक्ते किम् इति?
अमुकवर्णः इत्युक्ते कश्चन, सच् अण्ड् सच् अथवा सो अण्ड् सो तथा. सच् अण्ड् सच् वर्ड् अमुकवर्णः.
अस्तु भगिनि.
अत्र तु सन्धिकार्यम् इव अस्ति. स्थाने आदेशः, लोपः, आगमः इत्यादीनि कार्याणि. येषां कार्याणां सङ्केतार्थं विभक्तयः विभक्तीनां द्वारा कार्याणि कथं भवन्ति इति सः उक्तवान्. तदर्थम् अत्र विभक्तयः अर्थः भिन्नाः भवन्ति. यथा षष्टिविभक्ति इत्युक्ते स्थाने, एकस्य वर्णस्य स्थाने इति. प्रथमाविभक्तिः इत्युक्ते आदेशः अथवा आगमः अथवा नामकरणं, संज्ञा इति. सप्तमी विभक्तिः पूर्वकार्यम् इत्युक्ते तस्मात् तस्मिन् वर्णस्य पूर्वं कार्यं भवति. पञ्चमी विभक्तिः इत्युक्ते परकार्यं तस्मात् वर्णस्य अनन्तरं कार्यं भवति इति. तृतीया विभक्तिः इत्युक्ते संयोजनम् इत्युक्ते संयोगः.
अस्तु, इति कश्चन परिचयः अस्ति. लोके यथा विभक्तयः भवन्ति इत्युक्ते लोके तृतीया विभक्ति इत्युक्ते किं विद्या भगिनी?
तृतीया विभक्तिः इत्युक्ते
करणं माध्यमं तथा अस्ति खलु. कन्दुकेन क्रीडामि तथा. किन्तु पाणिनीयशास्त्रे तृतीया विभक्ति इत्युक्ते संयोजनं, यदा वर्णयोः संयोजनं भवति तदा इति. पञ्चमी विभक्ति लोके तु अपादानं, वृक्षात् फलं पतति, सप्रेषन् यत्र भवति तत्र पञ्चमी विभक्ति. किन्तु पाणिनीयशास्त्रे परकार्यं सूचयति. अस्तु, पञ्चमी युक्तपदं किमपि अस्ति चेत् तस्मात् परं कार्यं भवति इति सूचयति. सप्तमी विभक्ति इत्युक्ते पूर्वकार्यं, सप्तमी युक्तपदमस्ति तस्मात् पूर्वं कार्यं भवति इति. लोके तु सप्तमी विभक्ति इत्युक्ते अधिकरणं, कूप्यां जलम् अस्ति इतिवत्. प्रथमा विभक्ति तु आदेशः, आगमः, नामकरणम् इति. षष्टिस्थाने अस्तु. तर्हि इदानीं केवलम् इको यणचि इत्यस्य परिशीलनं करोतु भगिनी, तदनन्तरं समापयिष्यामः. पठनं मास्तु, इको यणचि इत्यस्मिन् के के काः काः विभक्तयः इति.
इको
किं भगिनि?
एकः प्रश्नः अस्ति, अत्र सप्तमी विभक्ति पूर्वकार्यं कथं एकवाक्यं?
इको यणचि इत्यस्मिन् सप्तमी विभक्ति आगच्छति. भगिनी वदिष्यति. भगिनी,
अत्र इको यणचि इकः षष्ट्यन्तम् इत्युक्ते इक इक् प्रत्याहारस्य कश्चन वर्णः अस्ति तस्य स्थाने आदेशः भवति षष्ट्यन्तं स्थाने. यणः यण् प्रथमान्तम्, अत्र अस्मिन् सूत्रे प्रथमान्तम् इत्युक्ते आदेशः. इकः स्थाने यण् प्रत्याहारस्य कश्चन वर्णः आगच्छति. अचि सप्तम्यन्तम्, अत्र सप्तम्यन्तम् इत्युक्ते अच् वर्णस्य पूर्वं कार्यं भवति.
त्रिपदमिदं सूत्रम् इति अस्ति. पुष्पा भगिनी पश्यतु, अचि इत्युक्ते पूर्व सप्तमी विभक्त्याम् अस्ति खलु? पुष्पा भगिनी, अस्ति. तर्हि सप्तमी विभक्ति इत्युक्ते पूर्वकार्यम्. इको यणचि इत्यस्य कार्यक्षेत्रं पश्यतु, यदि योगः अपि. अस्तु, अकारः अच्वर्णः
तिष्ठति.
अकार एकनिमिषः. अकारः अच्वर्णः, अच्वर्णस्य निर्देशः प्राप्यते सप्तमी विभक्त्याः द्वारा अचि इति. तर्हि अच्वर्णः अस्ति अकारः, अचि इति उक्तं, तस्मात् पूर्वं कार्यं भवति. पूर्वकार्यम् इत्युक्ते तस्मात् पूर्वं किम् अस्ति? इकारः अस्ति. तर्हि इकारस्य किञ्चित् कार्यं भवति. कार्यं किं? यकारादेशः यद्यपि. अस्तु, इति कश्चन परिचयः आसीत् विभक्तिनियमानाम्. इतः अग्रे सरेम, अग्रिमसप्ताहे. कोऽपि प्रश्नः अस्ति वा? नो चेत् विरमामः. धन्यवादः.
धन्यवादः.
धन्यवादः.